प्रजापतिगं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसाधनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरिद्रताम् कुरु माहि कुंसि पुरुषम् जगत शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगदयक्ष्मगुम् सुमना असत अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक अहे कश्च सर्वाजम्भयन् सर्वाशयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमाकुम् रुद्रा अभितो धिक्ष्वश्रुता सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतादिकदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानो हन्तेभ्यो करन्नमः प्रमुञ्चधन्वनस्वमुभयोरार्नियोर्चा याश्च तेहस्त इषवः पराता भगवो वप अवदध्यधनुस्त्वगुम् सहस्राक्षशरेषु हे निषेर्य शल्यानामुखा शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्यान्तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाशपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमस्तस्मिंशराय ऋषीमते पथीनां पतये नमो नमो बभ्रशाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूताय हल्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाया क्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः तमःसहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिने सेनानां पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणां पतये नमो नमो वंशते परिवंशते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमसृकाविभ्यो जिघागुं सद्भ्यो मुष्णताम् पतये नमो नमोऽसिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषु मद्भ्यो धन्वाविद्भ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नमः व्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः शुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वैश्येयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वल्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघल्याय च बुद्धेयाय च नमः सोभ्याय च प्रतिधर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः शोक्याय च वसान्याय च नमो वल्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च बभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनल्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कूप्याय च वट्याय च नमो वर्षाय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईध्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वासव्याय च वासुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कूल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाज्याय च नमः षष्ट्याय च भेल्याय च नमः सिकत्याय च प्रवाह्याय च नम हिरण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च भिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नमामि वत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो एषाम् किञ्चनाममत या ते रुद्रशिवा तनु शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजीतया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिल्लनातुरम् मृडानो रुद्रोत नो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छञ्छयोश्चमनुराय चे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो महीः पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीषः मानस्तोकेतनये मान आयुषि मानो कोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभावितो बहिर्हविष्मन्तो नमसा विधेमते आराध्ये गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यधा च न शर्म यच्छद्विबर्हाः स्तुहि श्रुतम् गर्त सदैयुवानम् मृकण्ण भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अल्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायो अवस्थिरा भगवद्भ्यस्तनुष्वमीढ्वस्तोकाय तनयाय मृडय मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसानमाचर पिनाकम् बिभ्रजागहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रकम् हेतयोऽल्यमस्मल्लिवपन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराशीनामुखाकृधि सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्वसि अस्मिन्महत्यर्णवे एतरिक्षे भव अधि नीलग्रीवाश्रितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवकम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलभृदाय व्युधः ये तीर्थानि प्रचरन्ति शृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुं सहस्रयोजने बधन्वानि तल्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्द्रक्षे ये दिव्येषामल्लम् वातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेय द्विष्मो यश्च नो द्वेष्टितम् वोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वभुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशामृत्योमर्त्याय हन्तवे तायज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वा विशान्तकः तेनान्नेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विशुस्तु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः
ॐ अग्ना विष्णोषजोषसेवा वर्धन्तु भाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे अपारश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च आधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च ओजश्च मे सहस्य आयुश्च मे जरा च आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठम् च आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे भश्च मे धेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यस्य मे यशस्य मे भगस्य मे द्रविणं च मे जन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे यात्रं च मे सोच्च मे प्रसोच्च मे शीरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे नरित्रं च मे भयं च मे सुगं च मे शयनं च मे शोषा च मे सुदिनं च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेदिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च भोद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भोजश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे पाशाश्च मे तिलाश्च मे भुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे वसुराश्च मे प्रियङ्गवश्च मेणवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिगताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे शावं च मे लोहं च मे अग्निश्च भापश्च मे विरुधश्च भोषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च व इन्द्रश्च मे सोमश्च व इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे भूषा च व इन्द्रश्च मे बृहस्पतिश्च व इन्द्रश्च मे मित्रश्च व इन्द्रश्च मे वरुणश्च व इन्द्रश्च मे त्वष्टा च व इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे भरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे बन्धे च म आग्रहणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वाधरश्च मरुद्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतेजाश्च मे बाहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे
पौष्णश्च मे पाद्येवतश्च मे
हार्यो जनश्च मे इध्वश्च मे बर्हिश्च मे वेदश्च मे कृष्णयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृच्छम आदवनीयश्च म आग्नेयं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे अर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे धृतिश्च मे द्योश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पं तामृच्च मे साम च मे सोमश्च मे यजुश्च मे भीक्षा च मे तपश्च मरुतश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच मे दित्यौरे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच मे तुर्यौरे च मे पष्टवाच मे पष्टौ हे च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे भग्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पता प्राणो यज्ञेन कल्पताम बाणो यज्ञेन कल्पताम व्यानो यज्ञेन कल्पताम चक्षुर्यज्ञेन कल्पताम श्रोत्रम् यज्ञेन कल्पताम मनो यज्ञेन कल्पताम वाग्यज्ञेन कल्पताम भात्वा यज्ञेन कल्पताम यज्ञो यज्ञेन कल्पताम एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे अष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे चत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे षट्चत्वारिगुंशच्च मे वाजश्च प्रसवश्च भिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इगा देवहोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदानि सगुंसिषद्विश्वे देवा सोक्तवा च पृथिविमातर्वा वाहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्षामि मधुवलिष्यामि मधुमति देवेभ्यो वाचमुद्या सगुं शुश्रूषेण्या मनुष्येभ्यस्तं वा देव अवन्तु शोभायै पितरो नुमलन्तु ॐ शान्ति 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 ॐ तच्छयो राणीमहे
గాదైరజ్ఞపదయే దైవే స్వస్తిరస్తునః స్వస్తిర్వాణుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షన్ చతుష్పదే ఓ శాంతి 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 సహస్రశీర్షాపురుషః సహస్రాక్ష సహస్రపాద్ స భూమిం విశ్వతో వృత్వా అత్యతిష్టద్దశాంగులం పురుష ఏవేదకుం సర్వం యద్భూతం యచ్చ భవ్యం ఉదామృతత్వస్యేషానః యదన్యేనాతిరోహతి ఏతావానస్య మహిమా తథో జ్యాయాగుశ్చ పూరుషః పాదోస్య విశ్వభూతాని త్రిపాదస్యామృతం దివి త్రిపాదోర్ధ్వ ఉదయత్ పురుషః పాదోస్యేహాభవాత్ పునః తథో విశ్వం వ్యక్రామద శాశనాయశయే అభి తస్మాద్ విరాజజాయత విరాజో అధిపురుషః సదాతో అత్యరిచ్యత పశ్చాత్ భూమిమతో పురః యత్పురుషేణ హవిషా దేవాయజ్ఞమతన్వత వసంతో అస్యాదిరాజ్యం రేష్మహిద్వశరద్ధవిః సప్తాస్యాసన్ పరిధయః త్రిసప్త సమిధ కృతాః దేవాయజ్ఞం తన్మానాః అపత్తన్ పురుషం పశుం తైయజ్ఞం వరిష ప్రోషన్ పురుషం జాతవగ్రతః తేన దేవాయజంత సాధ్యార్షయశ్చ యే తస్మాద్యజ్ఞాః సర్వభూతః సమృతం వృషధాజం పశోగుష్టాగుశ్చక్రేవాయవ్యాన ఆరణ్యాగ్రామ్యాశ్చ యే తస్మాద్యజ్ఞాః సర్వభూతః ఋషస్సామానిషగ్నిరే ఛందాగుంసిరగ్నిరేతస్మాత్ తరస్మాదశ్వాదశాయత యేషోభయాదసః గావోహజగ్నిరేతస్మాత్ తస్మాజ్జాతా అజావయః యత్పురుషం యదధూ కదినాభ్యకల్పయన్ ముఖం కిమస్య కౌ బాహూ కా భూరుపాదావుచే బ్రాహ్మణోస్య ముఖమాసీత్ బాహూరాజన్యకృతః ఊరు తదస్య యద్వైషః పద్భ్యాంభూరోరోహజాయత చంద్రభావనతో జాతః చక్షోసూర్యో అజాయత ఇంద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యాది అంతరిక్షం శీర్షౌర్యౌ సమవర్ధత పద్భ్యాభూమిశ్రోత్రాద్ తథా లోకాగుం అకల్పయన్ వేదాహమేదం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు ఆరే సర్వాణి రూపాణి విచిత్య ధీరా నామాని కృత్వాభివదన్యదాస్తే పురస్తాద్యబుదాధారా శక్ర ప్రవిద్వాణరిదశ్చతస్రా తమేవం విద్వాన్ అమృత ఇహ భవే తాని ధర్మాని ప్రథమాన్యా సన్న తే అనాపం మహిమాన సరతే యత్ర పూర్వే సాధ్యా సంతి దేవా అభ్య సంభూత పృథివ్యైరసాచ విశ్వకర్మణ సమవర్తతామి తస్య త్వష్టా విహర ద్రూపమేతి తత్పురుషస్య విశ్వమాచానమగ్రే వేదాహమేకం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వాన్నమృత ఇహ భవతే నాన్యః పంథా విద్యతే జనాయ ప్రజాపతిశ్చరతి గర్భే అంతః అజాయమానో బహుధా విజాయతే తస్య దేహా పరిజానంతి యోనిం వైదీనాం పదమిచ్చంతి వేదసః యో దేవేభ్యాతపతి యో దేవానా
పురోహితః
పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అశన్వదే హేషదే లక్ష్మీ చ పత్న్యో అహోరాత్రే పార్వే నక్షత్రాణి హోమం అశ్వినో వ్యాప్తం ఇష్టం మనిషానా అహం మనిషానా సర్వం మనిషానా తచ్చయ్యోరా వృణీమహే గాదయ్యజ్ఞాయ గాదయ్యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నో అస్తు ద్విపదే షం చ దుష్పదే ఓం శాంతి
శాంతి శాంతి ఓం జాతవేదసే సునవామ సోమమరాతి యతో నిదహాతి వేదః శరః పరిషదతి దుర్గాని విశ్వానామేవ సింధుం దురితాద్యగ్నిః తామగ్నివర్ణాం తపసా జ్వలంతీం వైరోచనీం ఘర్మ ఫలేషు జుష్టా దుర్గాం దేవీగుం శరణమహం ప్రపద్యే సుతరసి తరసే నమః అగ్నే త్వం పారయానవ్యో అస్మాన్ స్వస్తి విరతి దుర్గాని విశ్వా ప్రూశ్చ పృథ్వీ బహుళాన ఉర్వీ భవా శోకాయతనయాయ శయ్యో విశ్వానినో దుర్గ జాతవేద సింధున్న నావా దురితాది పర్షి అగ్నే అత్రివర్మనసా గృఢానోస్మాకం బోధ్య వితనూనా మృగనాదిశగుం సహమానముగ్రమగ్నిగుం భూవేమ పరమాస్య దస్తా సరః పరిషదతి దుర్గాని విశ్వాక్షామద్దేవో అతిదురితాద్యగ్నిః రత్నోషి కమీర్ధ్యో అధ్వరేషు సనాచ్య హోతానవ్యస్య సత్సే స్వాంచాగ్నే తనువం విప్రయస్వా స్వభ్యం చ సౌభగమాయజస్వ గోభిర్జుష్టమయుజో నిషిక్తం తవేంద్ర విష్ణోరను సంచరేమ నాకస్య పృష్టమవి సంవసానో వైష్ణవే లోక ఇహమాగయంతాం కాత్యాయనాయ విద్మహే కన్యకుమారి ధీమహే తన్నో దుర్గి ప్రచోదయాత్ యశ్చందసామృషభో విశ్వరూపః ఛందోభ్యోజమృతాత్ సంబభూవ సమేంద్రో మేధయా స్పృణాతు ఆమృత శా ते प्रजाभ्यः परिपालयन्ता न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु।